एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली समयस्य याचनायाः जनापेक्षायाश्च सम्बोधनत्वेन नेपाल प्रहरी सम्बद्धे सशस्त्र प्रहरी बल सम्बद्धे च विधेयके संशोधनम् विधातुम् सम्बद्ध मन्त्रालयम् निर्दिशति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे उप प्रधानार्थ मन्त्रिणा विष्णु प्रसाद पौडेलेन, गृहमन्त्रिणा रमेश लेखकेन, मुख्य सचिवेन एक नारायण अरियालेन, अर्थ गृह मन्त्रालयोः सचिवाभ्याम्, प्रहरी संघटन प्रमुखाभ्याम् च सह ह्य सायं विहिते विमर्शने प्रधानमन्त्री ओली प्रहरी संघटन सम्बद्धम् विधेयकम् समयानुकूलम् वस्तुनिष्ठम् च विधेयम् इति प्रावोचत। प्रधानमन्त्री ओली देशे शान्ति सुरक्षाम् सुशासनम् च स्थापयितुम् प्रहरी संघटनेषु अवरस्तराद् उच्चस्तर पार्यन्तिकम् सेवा सौविध्यादिकम् अपि विचार्य प्रस्तावम् आनेतुम् निरदिशत्। उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेल कथयति सहकारी संस्था सम्बद्धाधिनियमे विद्यमानया स्वनियम व्यवस्थया अपेक्षाकृत परिणामस्य अप्रदानात् सहकारी संस्थासु भयावह स्थिति उत्पन्ना अभवत्। सहकारी संस्था वित्त दुरूपयोगा ग सम्बन्धे संघटितया संसदीयानुसन्धान विशेष समित्या ह्य अर्थमन्त्रिणा सहितैः योजनायोगस्य उपाध्यक्षेणा प्राध्यापकेन डाक्टर शिवराज अधिकारिणा, राष्ट्रकोषस्य अधिशासकेन महाप्रसाद अधिकारिणा च सह विहितस्य विमर्शनस्य क्रमे अर्थमन्त्री पौडेलः सहकारी संस्थानाम् ऋणम् न प्रत्यावर्त्यते इत्युक्त्वा अभियान सञ्चालकेभ्य सर्वकारेण कथंविदमपि सौविध्यम् न प्रदास्यते इति प्रतिबद्धताम् व्यक्तवान्। अर्थमन्त्री पौडेलः पश्चात्तन समये कतिपय सहकारी संस्थाभिः अपारदर्शी रूपेण वित्तस्य अपचलनाद् दुरूपयोगाच्च समस्या उत्पन्ना स्थिति अगदत्। विमर्शने राष्ट्रिय योजनायोगस्य उपाध्यक्ष प्राध्यापक डाक्टर अधिकारी सहकारी संस्थासु संचित वित्तस्य अपेक्षयापि नैज क्षेत्रस्य अनुकूलताया अनुसारेण अग्रे वर्धनात् समस्या उत्पन्नेति असूचयत्। राष्ट्रकोषस्य गवर्नर पदीय महाप्रसाद अधिकारी अवोचत् सहकारी क्षेत्रम् द्वितीय नियमन निकायम् सम्पाद्य प्रभावकारी रूपेण निरीक्षणम् विधेयम्। प्रतिनिधिसभाया अन्तर्गतया अर्थ समित्या चतुष्षष्ट्यधिक द्विसहस्रतम विक्रम वर्षीय कोषागारीया पराद दण्डनाधिनियमम् संशोधयितुम् निर्मितम् गत विक्रम वर्षीयम् विधेयकम् आधृत्य सूत्रगत विमर्शनस्य पश्चात् कोषागारीय वित्तादेश प्रपत्रानादर सम्बद्धे न्यायिक प्रकरणे मासत्रयाद वर्षद्वयावधिका दण्डनस्य व्यवस्था विधेयके प्रस्ताविता वर्तते। अर्थसमिते ह्यस्तन विमर्शनस्य पश्चात् समितेः सभापतिः सन्तोष चालिसे विधेयके व्यवस्थेयम् प्रस्ताविता स्थिति असूचयत। सभापतिः चालिसे दण्डनस्य अपेक्षयापि विधेयके वित्त ग्रहणस्य विषयाय अधिक प्राथमिकता प्रदत्ता स्थिति असूचयत। समितेः ह्यस्तनोपवेशे उप प्रधानार्थमन्त्री विष्णु प्रसाद पौडेलः कोषागारीय वित्तादेश प्रपत्रानादरस्य न्यायिक प्रकरणानि वर्धमानानि सन्ति त्यतः प्रभावकारी विधिम् निर्माय तस्य प्रभावकारी क्रियान्वयनम् विधेयमिति अवोचत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड जनतायै अतिरिक्ताधिकाराणाम् प्रदानत्वेन संविधान संशोधनम् आवश्यकम् वर्तते इति गदति। विराटनगर विमानस्थले ह संचारकर्मीभिः अध्यक्ष प्रचण्डः स्वदलम् संविधान संशोधनस्य विरोधी दलम् नास्तीति समस्पष्टयत्। अध्यक्ष प्रचण्डः नेपाली जनतया दीर्घकालिक संघर्षेण बलिदानेन च सम्प्राप्तायाः उपलब्धेः हापनत्वेन संविधानस्य संशोधनम् कर्तुम् न दास्यति इति समस्पष्टयत्। विजया दशमी यम पञ्चक प्रवृत्तिषु पर्वोत्सवेषु सम्भावित मार्ग दुर्घटनानाम् न्यूनीकरणाय भौतिक पूर्वाधार यातायात मन्त्रालयेन बलम् प्रदत्तम् वर्तते। ह्य मन्त्रालय आयोजिते सम्बद्ध निकाय ईशा विमर्शन कार्यक्रमे भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः पर्वतसभानां प्रारभणात् पूर्वमेव मार्गे स्थितान् गर्तान् पूरयितुम् निरदिशत। तदवसरे मन्त्री दाहाल यातायात नियमानाम् उल्लङ्घनकारिणाम् नियन्त्रणाय नेपाल प्रहरिणम् निरदिशत। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेय मातृभाषाया प्रदेश स्थानीय स्तरैश्च दैनिक कार्य संचालनस्य भाषात्वेन प्रयोगाय बलं ददाति। भाषायोगस्य स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पाण्डेय सम्प्रति नेपाले एकत्रिंशदुत्तरैकशतं भाषा प्रचलिता सन्तीति अभाषत। मन्त्री पाण्डेय ध्वनेः लिपिरूपौ रूपान्तरणस्य अभावे सति भाषाया लोपम् अपि भवितुं शक्नोति, त्यतः भाषायाः प्रवर्धनम् आवश्यकम् अस्तीति प्रावोचत। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई साक्षरतायाः सूचकाङ्कान् प्रविधिना सह संयोज्य नूतन पाठ्यक्रमस्य निर्माणाय निर्दिशति। अष्टपञ्चाशत्तमस्य अन्तर्राष्ट्रिय साक्षरता दिवसस्य अवसरे भक्तपुरस्य सानो ठिमी वर्तिना शिक्षा मानव स्रोत विकास केन्द्रेण ह्य आयोजिते कार्यक्रमे मन्त्री भट्टराई साक्षरताम् विना शिक्षा शिक्षाम् विना विकासश्च न सम्भवतीति हेतोः समय सापेक्ष रूपेण पाठ्यक्रमस्य विकासाय सर्वैः संलग्नैर्भाव्यम् इत्यत्र बलम् प्रादात्। शिक्षा मन्त्री भट्टराई मातृभाषायाम् एव शिक्षणस्य अवसरम् प्रदातुम् सर्वकारः प्रतिबद्धोऽस्तीत्यतः आवश्यक नीति निर्माणाय तस्याः क्रियान्वयनाय प्रवर्तनस्य आवश्यकता स्थिति प्रावोचत। पर्सा जनपदस्य मसिहानिवर्तिनी शीर्ष्या खोलिकायाम् निमज्ज्य दौ बालको मृतौस्था। पर्सा जनपदस्य जगन्नाथपुर ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य मसिहानि स्थाने स्थितायाम् शीर्ष्या खोलिकायाम् ऋषि पञ्चम्या अवसरे स्थानीयाभ्याम् रंजिता देवी पटेल इत्यनया गान्धी देवी ठाकुर इत्यनया च सह स्नानाय गतौ। रंजिताया अष्टवर्षीय पुत्र अभिषेक पटेल गान्धी देव्याः दश वर्षीय पुत्र गुलशन ठाकुरश्च खोलिकायाम् निमज्ज मृतौ इति प्रेरणा ज्ञापितम् वर्तते। इति समाचाराः।